गीतासोपानवर्गं प्रति सर्वेषां स्वागतम्। आदौ सुभाषितं शृणुमः, पश्चात् पाठः आरभ्यते। भगिनी एकवारं स्मारयतु।
विद्यानाम नरस्य रूपमधिकं प्रच्छन्न गुप्तं धनम् विद्या भोगकरी सुखकरी विद्या गुरुनां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपूज्यतेन तु धनम् विद्याविहीन वसुः। श्रीगुरुभ्यो नमः। हरि ओम्।
धन्यवादाः भगिनी। अपि इति अव्ययस्य प्रसङ्गे पठन्तः स्मः। अव्ययानां चिन्तनं क्रियमाणमस्ति। अपि इति अव्ययपदं सः विषयः एव पठ्यमानः अस्ति। अगते वर्गे तं विषयम् अधिकृत्य कानिचन वाक्यानि दृष्टानि। अष्टमवाक्यपर्यन्तं समापितवन्तः। अनिच्छन्नपि वार्ष्णेया बलादिव नियोजितः इति श्लोकस्य भागं वयं दृष्टवन्तः, किन्तु श्लोकस्य भागः यथावत् नास्ति पुस्तके। अनिच्छन्नपि मनुष्यः कथं पापं चरति इति वाक्यं दृष्टवन्तः। पुटसङ्ख्या अस्ति 43-100 पुटं पश्यन्तु। तस्मिन् पुटे कानिचन वाक्यानि दत्तानि। अष्टमवाक्यपर्यन्तं समापितवन्तः। अद्य नवमवाक्यात् आरभ्य अवगन्तुं प्रयत्नं कुर्मः। 44-100 पुटं पश्यन्तु। पेज् 140 पश्यन्तु। भगिनी भवती एव आरम्भं करोतु। तत्र किं लिखितम्?
आं महोदय, चातुर्वर्णस्य कर्ता अकर्ता अपि ईश्वरः अस्ति। चातुर्वर्णस्य चतुर्णां वर्णानां अस्याः चातुर्वर्ण कृदन्तपदं भगिनि
अधितान्तं चेत् प्रातिपदिकं किं भवितुमर्हति?
चातुर्वर्णः
अत्र पदं किम् अस्ति? षष्ट्यन्तं पदम् अस्ति, किन्तु प्रथमान्तं पदं किम् अस्ति?
अकारान्त चातुर्वर्ण
चातुर्वर्ण्यम्।
ओ, वर्ण्यं नपुंसकमस्ति वा?
चातुर्वर्ण्यम् इति अस्ति, तत्र प्रातिपदिकमस्ति चतुर्वर्ण।
ओ,
खलु तद्धितान्तपदेषु आदिवृद्धिः भवति खलु? तद्धितेषु अचाम् आदेः इति एकं सूत्रमस्ति। तेन सूत्रेण तद्धितान्तपदेषु सामान्यतया आदिमवर्णस्य वृद्धिः भवति, अकारस्य वृद्धिः आकारः। चतुर्वर्ण इति प्रातिपदिकं स्वीकृत्य चातुर्वर्ण्यम् इति रूपं साधितमस्ति। शञ् इति प्रत्ययः अस्ति। चत्वारः वर्णाः सन्ति इत्यस्मिन् अर्थे, चत्वारः वर्णाः सन्ति इत्यस्मिन् अर्थे चातुर्वर्ण्यं। गीतायाम् एकः श्लोकः अस्ति, चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः इति श्लोकः अस्ति। गुणकर्मविभागशः इति मुख्यविषयः। चातुर्वर्ण्यं मया सृष्टं किन्तु गुणकर्मविभागशः इति तत्र उक्तमस्ति। रमेश् महोदय कृपया वदतु, तस्य अर्थः कः?
कस्य महोदय? गुणकर्मविभागशः अर्थः वा चातुर्वर्ण्यस्य अर्थः वा?
भवान् यत् वक्तुमिच्छति तद् वदतु, चिन्ता मास्तु।
अस्तु, चतुर्णां वर्णानां समूहः चतुर्वर्णः। तस्य तत्र शय्य शय्य इति
चातुर्वर्ण्यं, तत्र मधुरस्य भावः, मधुरस्य भावः माधुर्यम्, एवमेव चतुर्वर्ण इति प्रातिपदिकं स्वीकृत्य शञ् प्रत्ययस्य योजनेन चातुर्वर्ण्यम् इत्युक्ते आदिमवर्णस्य वृद्धिः भवति, उचितस्य भावः औचित्यं खलु,
तादृशमेव
तादृशमेव
चातुर्वर्ण्यस्य वर्णानां चातुर्वर्ण्यं तस्य चातुर्वर्ण्यस्य इति. तत्पश्चात् भवती एकः श्लोकः उक्तवती खलु,
गुणकर्म विभागशः.
तर्हि भगवान् तत्र वदति सः एव चातुर्वर्ण्यव्यवस्था यद् अस्ति तस्य कर्ता अस्ति इति. केन कारणेन चतुर्णां विभज्यते इत्युक्ते गुण अपि च कर्म आधारेण तस्य विभागः भवति इति वा.
उत्तमं, धन्यवादाः. तदेव गुणकर्मविभागशः इति कथनेन गुणानां भेदेन कर्मणां भेदेन एवं सृष्टं, चातुर्वर्ण्यं सृष्टं, किन्तु केन आधारेण, गुणकर्मविभागशः गुणानां भेदेन कर्मणां भेदेन चातुर्वर्ण्यं भगवता सृष्टम् इति अर्थः अस्ति. अत्र वाक्यं पश्यतु, कर्ता अकर्ता अपि ईश्वरः इति लिखितमस्ति. तत् कथं भवितुमर्हति? चातुर्वर्ण्यस्य कर्ता अपि ईश्वरः, अकर्ता अपि, अत्र अपि इति लिखितमस्ति, कर्ता अपि ईश्वरः, अकर्ता अपि ईश्वरः. एवं किमर्थम् उक्तम्?
कार्यं करोति अकरोति अपि ईश्वरः एव.
अत्र बहु किमपि चिन्तनमस्ति खलु भगिनि?
आमा भगिनि.
अत्र कर्तापि ईश्वरः अकर्तापि ईश्वरः एवं कथनेन तत्र अर्थः कः इति प्रश्ने सति, तत्र परमात्मना एव चातुर्वर्ण्यं सृष्टम् इति तु सत्यं, किन्तु सः कर्मणः साक्षी एव, कर्मणः फलं सः न अनुभवति, सः केवलं कर्मसाक्षी एव. अतः परमात्मा अकर्ता भवितुमर्हति खलु? रमेश महोदय, भवान् किं चिन्तयति?
भवितुमर्हति. तर्हि यदि सः अकर्ता अस्ति तर्हि किमपि कार्यमपि एव नास्ति इति सः अकर्ता भवितुम् अर्हति तादृशं वा?
इत्युक्ते चातुर्वर्ण्यं परमात्मना भगवता सृष्टमेव, अतः सः कर्ता, अतः तद्वाक्यं सत्यं, किन्तु सः परमात्मा अकर्ता कथं भवितुम् अर्हति इत्युक्ते, ईश्वरः अकर्ता कथं भवति इत्युक्ते, ईश्वरः केवलं कर्मणः साक्षी एव, कर्मणः फलं सः कदापि न अनुभवति इति. तस्मिन् अवसरे परमात्मा अकर्ता इति वक्तुं शक्यते. सूर्यकुमारी भगिनी, कर्ता
तत्र ईश्वरः इति दत्तमस्ति न महोदय?
ईश्वरः
परमात्मा,
ईश्वरः एव परमात्मा खलु?
भेदः अपि वक्तुं शक्यते इति अहं चिन्तयामि. तत्र ईश्वरः यः माया अस्ति, ईश्वरः अस्ति यः माया, यस्य अधीनः माया अस्ति सः ईश्वरः इति वक्तुं शक्यते. परमात्मनः भिन्नः इति.
एवं वा? अस्तु,
बहु किमपि अस्ति तत्र.
अस्तु, अत्र बहु किमपि अस्ति. धन्यवादाः. उत्तमम् उत्तमम्. अत्र ईश्वरः इति पदमस्ति खलु, तत्र धातुः अस्ति इदं पदं कृदन्तपदम्. ईश्वरः इति कृदन्तपदमस्ति, ईष् धातुः अस्ति, ईष् धातुः अदादिगणे अस्ति, ईष्टे ईशाते ईशते इति रूपाणि सन्ति. अदादिगणे अस्ति इति कारणतः तत्र रूपाणि किञ्चित् भिन्नानि भवन्ति खलु. तत्र ईष्टे ईशाते ईशते एवं तस्य लटीरूपाणि सन्ति. तत्र ऐश्वर्ये इत्यस्मिन् अर्थे सः धातुः अस्ति. ईश् धातुतः वरच् इति प्रत्ययस्य योजनेन ईश्वरः इति रूपं भवति. साधारणं पदं वयं जानीमः, ऐश्वर्यम्. ऐश्वर्यम् इति पदं कथं साधितं महोदय वदतु.
तदपि शञ् एव अस्ति, ईश्वरस्य भावः ऐश्वर्यम्.
उत्तमम्. ईश्वरस्य भावः ऐश्वर्यम् इति भवति. ऐश्वर्यम् इति पदमपि तद्धितान्तपदमेव. कर्ता अकर्ता अपि ईश्वरः अस्ति. कर्ता इति रूपं साधनीयं. सूर्यकुमारी भगिनी वदतु, कर्ता इति पदं तृजन्तरूपं, तृच् प्रत्ययस्य योजनेन निर्मितं. क्रू धातुतः तृच् योजयतु.
तृच् क्रू कर्ता भवति.
तृच् प्रत्ययः आर्धधातुकप्रत्ययः. क्रू धातुतः तृच् आर्धधातुकप्रत्ययः. अपि च आर्धधातुकप्रत्ययः कीदृशः? कित् नित् णित् णित् भिन्नः. आर्धधातुक वदतु.
गुण भवति. खर् भवति.
केन सूत्रेण?
सर्वधातुक अर्धधातुकयोः.
उत्तमम्. आर्धधातुक तृच् प्रत्ययं निमित्तीकृत्य क्रू इति अजन्तधातुः अस्ति. अजन्तधातुः अस्ति इति कारणतः अजन्तम् अङ्गमस्ति. आर्धधातुक तृच् प्रत्ययं निमित्तीकृत्य सार्वधातुक अर्धधातुकयोः सूत्रेण गुणः भूत्वा क्रू कर् भवति. कर् योगः तृच् इत्यत्र तृ इति एव, तृ एव अवशिष्यते. कर् योगः तृ केवलं वर्णमेलनेन कर्तृ इति प्रातिपदिकं सिद्ध्यति. किन्तु प्रथमाविभक्ति एकवचरूपं साधयितुं तत्र सुबन्त प्रक्रिया करणीया. तत्र इतोपि अन्यानि सूत्राणि आवश्यकानि खलु? उत्तमम्. अत्र अकर्ता इति कथनेन
तदेव
न कर्ता अकर्ता
तत्पुरुष
नैतत्पुरुषसमासः अस्ति. न कर्ता अकर्ता इति अस्ति. अत्र कर्ता इत्यत्र ककारः अस्ति खलु, हलन्तशब्दः खलु, अतः अत्र केवलम् आ एव तिष्ठति. किन्तु उत्तरपदम् अजन्तपदमस्ति चेत् अन् भवति खलु. ऐक्यम् अनैक्यम् इतोपि ईदृशानि उदाहरणानि वक्तुं शक्यते वा? अश्वः अनश्वः इत्युक्ते नैसमासप्रसङ्गे उत्तरपदम् अजन्तपदमस्ति चेत् अन् आदेशः भवति तत्र. किन्तु उत्तरपदं हलन्तपदमस्ति चेत् केवलम् आ एव आयाति इति तत्र विषयः अस्ति. अनैक्यम् अनश्वः. महोदय भवान् वदतु अन्यानि उदाहरणानि.
अनङ्गः.
अनङ्गः उत्तमम्. अनङ्गः कः?
कामदेवः.
कामदेवः. मन्मथः.
मन्मथः.
मन्मथः इत्युक्ते कः? तत्र मन्मथः इति पदमस्ति. तत्र मन्मथः इत्यस्य अर्थः कः?
मनः मतः. मन्मथः मन्मथः. मथी मठः एव खलु. मन्मत्थः वा थकारान्तः
महाप्राणथकारः.
महाप्राणः अस्ति वा थकारः?
महाप्राणथकारः मन्मथः इत्युक्ते तस्मिन् वर्गे ताथ दाध न इति अस्ति खलु, द्वितीयवर्णः इति मम अवगमनम्.
मन्मथः. मथः इत्युक्ते मनः मथ्नाति इति मतः वा?
एवम् इति अहं चिन्तयामि. अस्तु, तदर्थमेव तस्य नाम मन्मथः इति अस्ति. अनङ्गः इत्युक्ते तस्य अङ्गम् इत्युक्ते गात्रं, शरीरं नास्ति इति कारणतः अनङ्गः इति भवति खलु. अङ्ग अङ्ग इति प्रातिपदे अङ्ग इत्यत्र उत्तरपदम् अजन्तशब्दः अस्ति इति कारणतः अनादेशः भवति, अतः अनङ्गः इति भवति. अस्तु, अग्रिमं वाक्यं भवान् पठतु.
चतुर्थं पूर्वैः मुमुक्षुभिः अपि ज्ञात्वा कार्यं कृतं. पूर्वैः इति तृतीयायाम् अस्ति, मुमुक्षुभिः इति पदस्य विशेषणमस्ति, अपि इति अव्ययं, ज्ञात्वा इति अपि अव्ययं, क्त्वा पदमस्ति, कार्यं कृतम्. कार्यम् इति कर्म अस्ति, कर्मपदमस्ति, कृतम् इति
तस्य विशेषणं
कृदन्तमस्ति, क्रियारूपेण कार्यं करोति तत्र.
उत्तमम्. इदं वाक्यं कर्मणि प्रयोगे अस्ति इति वक्तुं शक्यते वा?
हा, कर्मणि एव अस्ति. कार्यमिति प्रथमायाम् अस्ति, कृतम् इति विशेषणम् अस्ति तस्य.
त्रीणि एकम् एकं मुमुक्षुभिः कार्यं कृतम् इति वाक्यं सरलवाक्यम् अस्ति. अत्र पूर्वैः, अत्र पूर्व इति प्रातिपदिकमस्ति, सर्ववत् सर्वशब्दवत् पूर्व इति अपि सर्वनामपदमस्ति. पूर्वैः मुमुक्षुभिः, मुमुक्षुभिः इत्यत्र प्रातिपदिकं किम्?
मुमुक्षु इति प्रातिपदिकं, तदपि मोक्तुम् इच्छति इति मुमुक्षुः वा?
अत्र मोक्तुम् इच्छति मुमुक्षुः. सन्नन्त किं वक्तव्यम् इतोपि स्पष्टतया? सन्नन्त कृदन्तम्.
सन्नन्त उहु इति किमपि अस्ति खलु?
ऊ प्रत्ययः अस्ति.
ऊ प्रत्ययः अस्ति.
जिज्ञासुः, मुमुक्षुः, पिपासुः इति कथनेन तत्र सन्नन्त कृदन्तम् अस्ति. मोक्तुम् इच्छति मुमुक्षुः, किन्तु मोक्तुम् इच्छा इति कथनेन
मुमुक्षा भवति.
उत्तमं, मुमुक्षा भवति. तत्र भिन्नप्रत्ययः अस्ति, किन्तु कृत् प्रत्ययः अस्ति. अत्र मुच् इति धातुः अस्ति. मुच् धातुतः सन् प्रत्ययस्य योजनेन इच्छार्थे सन् प्रत्ययः भवति. सन् प्रत्ययस्य योजनेन मुमुक्ष इति नूतनधातोः निर्माणं भवति. नूतनधातुं स्वीकृत्य कृदन्तपदानि, तिङन्तपदानि साधयितुं शक्नुमः. मुमुक्षति इति लटिरूपम् अस्ति. किमर्थं तत्र मुमुक्षति इति परस्मैपदिरूपम् इत्युक्ते, तत्रापि पूर्ववत् सनः इति सूत्रेण तत्र धातुः मुच् धातुः परस्मैपदी धातुः, अतः मुञ्चति इति रूपमस्ति. मुच् धातुतः मुञ्चति कथमायाति? लटीरूपं कर्तरि लटीरूपम्
गणनिमित्तेन मुञ्चति
भवति. तत्र शेमुचादीनाम् इति सूत्रमस्ति. शेमुचादीनां सूत्रेण नुमागमः भूत्वा मुञ्चति रूपं सिद्ध्यति, कर्तरि लट् रूपं. कर्मणि लट् रूपं मुच्यते अस्ति, किन्तु अत्र सन्नन्तरूपं दत्तमस्ति. सन्नन्तरूपं सन्नन्तलटीरूपं मुमुक्षति, किन्तु अत्र सन्नन्तकृदन्तं दत्तमस्ति, मुमुक्षुः इति रूपमस्ति. ज्ञात्वा इत्यत्र किमपि कार्यं नास्ति खलु? महोदय वदतु.
किमपि कार्यं न दृश्यते. न्यायोगः त्वा, तत्र न्या इति तस्य इडागमः न भवति, तर्हि किमपि कार्यं न भवति. न्यायोगः त्वा एव.
उत्तमम्. अत्र किन्तु ज्ञाधातोः लटीरूपं जानाति अस्ति, तत् कथम्?
जार्जनोर्ज्ञ इति सूत्रमस्ति तस् न
ज्ञाजनोर्जा सूत्रेण
ज्ञाजनोर्जा एव वा? ज्ञास्थाने जन् आदेशः भवति. जन् इति
महोदय ज्ञास्थाने जा आदेशः भवति क्रियादिगणे अस्ति इति कारणतः श्नाविकरणप्रत्ययः अस्ति अतः जानाति
अस्तु
उत्तमम् अत्र कार्यं कृतम् इति लिखितमस्ति भगिनी भवती वदतु कृतम् इति कीदृशं रूपं
क्रान्तरूपं नपुंसकलिङ्गं
कथं साधनीयम्
क्रूधातुतः ताप्रत्यय कृत भवति कार्यं नपुंसकलिङ्गं कृतं नपुंसकलिङ्गं भवति
उत्तमं कर्मणि प्रयोगे वाक्यमस्ति इति कारणतः अत्र तस्य विशेषणं भवति अत्र क्ताप्रत्ययः कर्मार्थकप्रत्ययः क्ताप्रत्ययः कर्मार्थकप्रत्ययः अत्र धातुः सकर्मकधातुः क्रूधातुतः निर्मितं पदं खलु क्रूधातुतः निर्मितं क्रुदन्तम् अस्ति क्तान्तरूपम् अस्ति अत्र सकर्मकधातुः अस्ति इति कारणतः अत्र कर्मणि प्रयोगे वाक्यं साधितम् इति विषयः क्रूधातुतः क्ताप्रत्ययः कृत कार्यम् इति रूपमस्ति तत्र किमस्ति
कार्यकारान्त नपुंसकलिङ्गपदमस्ति
उत्तमं
कार्यं प्रथमपुरुष अस्ति प्रथम एकवचनं कार्यम्
अत्र मम आशयः कः इत्युक्ते तद्रूपं कथं साधनीयं महोदय भवान् वक्तुमिच्छति वा
रुहल्योर् ण्यत् ण्यत् प्रत्ययः अस्ति तत्र रुहल्योर् ण्यत् इति कृदन् कृ इति धातुः ऋकारान्तधातुः अस्ति तर्हि ण्यत् प्रत्ययः भवति ण्यत् प्रत्ययस्य णकारेण वृद्धिः भवति अचोनिति इति
अचोनिति इति सूत्रेण
तर्हि कृ हा भवति उरन् रपरः भवति कार् इति सिद्ध्यति कार्योगः य कार्य नपुंसकरूपं कार्यम् इति भवति
उत्तमं तत्र ण्यत् प्रत्ययः अस्ति महोदयेन उक्तं रुहलोर्ण्यत् सूत्रमस्ति धातुः ऋकारान्तधातुः हलन्तधातुः अस्ति चेत् ण्यत् प्रत्ययः विहितः भवति क्रूधातुतः ण्यत् प्रत्ययः ण्यत् प्रत्ययः णित् प्रत्ययः अस्ति प्रत्ययः णित् अस्ति चेत् अचोणिति इति सूत्रेण अत्र धातुः अजन्तधातुः अतः अचः णिति णित् प्रत्यये परे वृद्धिः भवति वदतु
अचोणिति वृद्धिः भवति अचन्त अचन्त धातुतः नित् प्रत्यय नित् अस्ति चेत् वृद्धिः
भवति अत्र ऋकारस्य वृद्धिसंज्ञकवर्णः आकारः क्षम्यताम् आकारः किन्तु तत्र उरण् रपरः इति सूत्रेण सः आकारः रपरः भवति अतः क्रू इत्यस्य रूपं कार् भवति तेन कार्यम् इति रूपं सिद्ध्यति कृत्यम् इति पदमपि अस्ति महोदय भवान् जानाति वा कृत्यम् इति पदस्य प्रसङ्गे
कृत्यम् इति पदस्य
कृतं पुनः वदामि कृतं भिन्नं कृतं भिन्नं कार्यं भिन्नं कृत्यम् इति भिन्नं खलु
कृत्यं हा भिन्नम् अस्ति अतः तत्र प्रत्ययः अस्ति इति न जानामि परन्तु तकारस्य ह्रस्वस्य पिति कृति तुक् इति सूत्रेण तकार आगच्छति तर्हि यकारादि प्रत्ययः भवेत् कृत्यं किमर्थम् अस्ति कृत्यम्
अत्र मया किं पठितम् इत्युक्ते विभाषाकृवृषोः इति एकं सूत्रमस्ति विभाषाकृवृषोः इति सूत्रेण विकल्पेन क्यप् इति प्रत्ययः विहितः भवति तेन कृत्यम् इति रूपं भवति ण्यत् प्रत्ययः भवति चेत् कार्यं क्यप् क्यप् प्रत्ययः विहितः भवति चेत् कृत्यम् इति रूपं सिद्ध्यति इति विषयः अग्रे सरेम भवान् पठतु अग्रिमं वाक्यं.
पण्डिताः अपि कार्या कार्यविषये भ्रमन्ति. कार्या कार्यविषये पण्डिताः इति प्रथमाविभक्ति बहुवचनम्, अपि इति इति अव्ययं, कार्याकार्यविषये इति सप्तम्यन्तपदं समस्तपदमस्ति. भ्रमन्ति इति क्रियापदमस्ति.
कार्याकार्यविषये इत्यत्र समासप्रसङ्गे इतोपि किञ्चित् वदतु.
कार्य कार्य च अकार्य च कार्यं च अकार्यं च कार्याकार्ये
किमर्थं तत्र कार्याकार्ये इति, तत्र किमर्थं नपुंसकलिङ्गरूपमेव वक्तव्यं, नपुंसकद्विवचनरूपम्? अत्र चिन्तनमस्ति, चिन्तनमस्ति खलु, तत्र कार्यं च अकार्यं च, अत्र पदार्थद्वयमस्ति, कार्यम् अकार्यम् इति पदार्थद्वयमस्ति. पदार्थद्वयस्य मेलनं कुर्मः इदानीं. तत्र समासप्रसङ्गे लिङ्गनिर्णयः करणीयः, वचननिर्णयः अपि करणीयं भवति. भवान् वदतु, अत्र कार्याकार्ये इति रूपमेव वक्तव्यं खलु?
कार्याकार्ये भवति वा कार्याकार्यं भवति वा, शीतोष्णम् इति यत्र विरोधपदम् अस्ति तत्र तदेव अहं चिन्तयन् अस्मि. तत्र कार्याकार्यं भवति वा इति सूत्रम्
अहं चिन्तयामि, कार्याकार्ये इति भवति इति मम चिन्तनमस्ति. अस्तु, अत्र अपि च तस्य अनन्तरं षष्ठी तत्पुरुषसमासः अस्ति खलु,
कार्याकार्य विषये, कार्याकार्यस्य विषयं, कार्याकार्य षष्ठी तत्पुरुषः, कार्याकार्यस्य विषयं न, कार्याकार्ययोः विषयं किमपि, तद् प्रथमविभक्ति वा अस्ति वा, एकवचनमस्ति वा द्विवचनमस्ति वा इति अहं न जानामि.
कार्याकार्ययोः, कार्याकार्ययोः विषयः,
विषयः कार्याकार्यविषयः
तस्मिन्
तस्मिन् इति कार्याकार्यविषये इति भवति.
उत्तम, उत्तम. अत्र पण्डिताः इति पदमस्ति खलु, मया किं दृष्टमित्युक्ते पण्डा इत्युक्ते तत्त्वविषयिणी बुद्धिः इति लिखितम् अस्ति. पण्डा इत्युक्ते तत्त्वविषयिणी बुद्धिः, वेदोज्ज्वला तत्त्वविषयिणी बुद्धिः इति अस्ति. अपि च पण्डा अस्य सञ्जातम् इति पण्डित इति लिखितमस्ति. इतच् प्रत्ययः इति तदस्य सञ्जातम् इति अर्थे, तत्र तारकादिभ्यः इतच् इति सूत्रेण इतच् प्रत्ययः अस्ति इति मया दृष्टमासीत्. तारकादिगणः नाम्ना एकः गणः अस्ति, इत्युक्ते सः गणः आकृतिगणः. आकृतिगणः इति कथनेन तत्र इतोपि अन्यशब्दाः तस्मिन् गणे योजयितुं शक्यन्ते, किन्तु शिष्टप्रयोगम् आश्रित्य एव आकृतिगणेषु अन्यानि पदानि योजयितुं शक्नुमः इति, तत्र शिष्टप्रयोगम् आश्रित्य एव अन्यानि पदानि योजयितुं शक्यन्ते इति तत्र विषयः अस्ति. पण्डिताः भ्रमन्ति, कुत्र तेषां भ्रमः अस्ति, कार्याकार्यविषये इति खलु. अग्रे सरेम भगिनी, भवती पठतु.
आम् आ भगिनि, कर्म अकर्म विकर्म अपि ज्ञातव्यम्. कर्म अकर्म विकर्म, कर्म अकर्म नन्तत्पुरुष आय हलन्त उत्तरपद अस्ति. अकर्म विकर्म वि उपसर्ग सः कर्म विकर्म. अकर्म कार्यं न करोति, कर्म करोति, विकर्म दुष्टकर्म.
अत्र त्रीणि पदानि सन्ति खलु, कर्म, अकर्म, विकर्म. तेषां भेदः अस्ति. अत्र कर्म इति कथनेन विहितं कर्म इति अर्थः.
ओके,
यद् करणीयं तदेव विहितं कर्म इति एव कर्म. अकर्म इति कथनेन निषिद्धं कर्म. विकर्म इति कथनेन विधिनिषेधरहितं कर्म.
विधिनिषेधरहितम् आम्
कर्म. विहितं कर्म भिन्नं, निषिद्धं कर्म भिन्नं, विधिनिषेधरहितं कर्म भिन्नम्. एवं कर्म त्रिविधम् अस्ति. किन्तु एतत् सर्वम् अत्यन्तं क्लेशेन एव अवगन्तव्यम्. इत्युक्ते एतत् कर्म किम्, अकर्म किं, विकर्म किम्, एतत् सर्वं क्लेशेन एव अवगम्यते इति वार्तात्रे. कर्मणः
अकर्म, क्षम्यताम्, अकर्म निषेधकर्म भगिनि,
निषेधकर्म. अकर्म इति कथनेन निषेधकर्म, निषिद्धकर्म. अतः एव लिखितमस्ति गहना कर्मणो गतिः इति अस्ति. कर्मणः गतिः गहना अस्ति. एवं एतस्य त्रिविधस्यापि स्वरूपं ज्ञातव्यं, कर्मणः स्वरूपं ज्ञातव्यं, किन्तु गहना कर्मणो गतिः इति अस्ति. कर्मणः स्वरूपं बोद्धव्यम्, अकर्मणः स्वरूपं बोद्धव्यम्, विकर्मणः स्वरूपमपि ज्ञातव्यं जनैः इति अर्थः. ज्ञातव्यं भगिनी भवती वदतु, तत् कथं साधनीयम्?
ज्ञाधातुतः भवतु नपुंसकलिङ्गम् अस्ति.
भवतु वा, तत्र प्रत्ययः कः?
ज्ञातवान्,
ज्ञातव्यत्,
तव्यत्, तव्यत्, ज्ञातव्य, ज्ञातव्यः, ज्ञातव्यं,
ज्ञातव्यम्. तत्र किमपि कार्यं नास्ति खलु?
आम्,
ज्ञाधातुतः तव्यत् योजनेन,
क्षम्यतां, तव्यत् ज्ञातव्यम् अस्ति.
तत्र तव्यत् प्रत्ययं निमित्तीकृत्य किमपि अङ्गकार्यं नास्ति, धातुरूपी अङ्गे कार्यं नास्ति. किमर्थं चेत् धातुः आकारान्तधातुः अस्ति, तत्र गुणकार्यं भवितुं न अर्हति खलु? अनुबन्धलोपानन्तरं केवलं वर्णमेलनेन ज्ञातव्य इति प्रातिपदिकं सिद्ध्यति. पश्चात् प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि, सप्तसु विभक्तिषु रूपाणि साधयितुं शक्नुमः खलु?
उत्तमम्.
अग्रिमं वाक्यं,
निस्सङ्गः कार्यं कुर्वन् अपि कर्मबन्धनं न प्राप्नोति. निस्सङ्गः कार्यं कुर्वन् अपि कर्मबन्धनं न प्राप्नोति. ये पुरुषाः कार्ये अनुबन्धं नास्ति चेत् कर्मबन्धनं न प्राप्नोति.
बहु उत्तमं वाक्यं खलु?
आं भगिनि,
उत्तमम्. अत्र कुर्वन् अपि इति लिखितमस्ति. कुर्वन् कीदृशं पदं?
शत्रन्तपदम्.
शत्रन्तम् अस्ति. प्रातिपदिकं किं?
क्रुधातु
प्रातिपदिकं.
शत्रन्तप्रातिपदिकं
कुर्वत् अस्ति. तत्र इदं रूपं शत्रन्तरूपमस्ति. क्रू धातुतः शत्रुप्रत्ययस्य योजनेन
कुर्वन् आम्.
लिङ्गं किं?
पुल्लिङ्गं,
पुंलिङ्गम्. अत्र शत्रन्तपदं कर्तृपदस्य विशेषणं भवति. शत्रुप्रत्ययः कर्त्रार्थकप्रत्ययः, कर्त्रार्थकसार्वधातुकप्रत्ययः खलु?
भगिनि,
किमर्थं सार्वधातुकः?
सकार अस्ति, सित् अस्ति.
उत्तमम्. शित्वात् सार्वधातुकः इति कर्तृपदस्य विशेषणं भवति. कर्तृपदस्य विशेषणं भवति शत्रन्तपदम्. अतः शत्रन्तरूपसिद्धिः सार्वधातुकप्रक्रियायाम् अन्तर्भूतमस्ति. सार्वधातुकप्रक्रिया एव. अतः गणचिन्तनं करणीयं. धातुः कस्मिन् गणे अस्ति इति अवश्यं द्रष्टव्यम्. शत्रन्तरूपसिद्धौ धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यं. क्रूधातुः कस्मिन् गणे अस्ति?
तदादिगणे अस्ति.
तनादिगणे खलु? तनादिकृण्भ्यः उः
खलु.
अहं चिन्तयामि. महोदय, भवान् किं चिन्तयति?
तनादिभ्यः एव. तनादिभ्यः उः.
तनादि तनादिकृण्भ्यः उः. तनादिगणः अष्टमगणः तनादिगणे अस्ति. तनादिकृण्भ्यः उः इति सूत्रमस्ति. उः विकरणप्रत्ययः आयाति. अस्तु, अत्र कुर्वन् योगः अपि इति पृथक्तया लिखितमस्ति. महोदय, अत्र सन्धिकार्यं कृत्वा लिखतु.
कुर्वन् अपि,
तत्र चिन्तनं किम्?
अत्र नमो ह्रस्वात् नमुट् नित्यम् इति सूत्रेण नमो ह्रस्वात् नमुट् इति तेन नकारस्य स्थाने अकारस्य स्थाने नकार आदेशः भवति, नकार आगमः भवति. नुट् नुट् इत्युक्ते आद्यन्तौ टकितौ तर्हि अकारस्य नमो ह्रस्वात् नमुट् नित्यं. नमो ह्रस्वात्
अत्र ञमो ह्रस्वादच ञमुट् नित्यम् इति कथनेन ञमुट् ञमुट् आगमः भवति. ञमुट् इति कथनेन तत्र ञकारः णकारः दन्त्यनकारः मूर्धन्यणकारः दन्त्यनकारः ञकारः एतेषु त्रिषु वर्णेषु अन्यतमवर्णः तत्र अस्ति चेत् सः एव वर्णः अत्र आगमरूपेण आयाति. ञमो ह्रस्वादचि णमुट् नित्यम् इति भवति. तत् सूत्रमस्ति. सन्धेः नाम ञमुडागमसन्धिः इति भवति. सन्धिकार्यं कृत्वा श्लोके लिखितमस्ति. कुर्वन्नपि इति तत्र लिखितमस्ति. कर्मबन्धनं भवान् वदतु.
कर्मणः बन्धनं षष्टितत्पुरुषः वा कर्मणा बन्धनं वा? कर्मणा बन्धनं बन्धः, कर्मणा बन्धनं कर्मबन्धनं, कर्मणा बन्धनं कर्मबन्धनम् इति अहं चिन्तयामि.
अत्र तृतीया तत्पुरुषसमासस्य प्रसङ्गे विशिष्टसूत्राणि सन्ति खलु. तत् सूत्रम् अत्र वदतु.
तत्र बन्धनम् इति कृदन्त अस्ति खलु, कृदन्त अस्ति. कर्तृकरणं कृता बहुलं करण अस्ति. कर्मणा बन्धनं कर्तृकरणं.
सामान्यतया तृतीया तत्पुरुषसमासस्य प्रसङ्गे उत्तरपदं क्तान्तपदं द्रष्टुं शक्नुमः सामान्यतया. किन्तु अहं चिन्तयामि अत्र कर्मणः बन्धनं इति
चिन्तयामि.
अत्र बन्धनम् इति रूपम् अस्ति. अत्र धातुः बन्ध धातुः. बन्ध धातुतः बन्धनं रूपं साधयितुं तत्र क्लेशः नास्ति खलु.
ल्युट्
बन्धयोगः ल्युट्
अस्ति. ल्युट् ल्युट् युवर्णाकौ यकारस्य स्थाने अण बन्धन नपुंसकमस्ति तत् बन्धनम् इति भवति.
उत्तमं. किन्तु अत्र बन्धधातोः प्रसङ्गे लट्टीरूपं बध्नाति अस्ति. बन्धधातुः किन्तु लट्टीरूपं बध्नाति. तत्र नकारलोपः भवति. किमर्थम्?
रुदादिगणे अस्ति. रुदादिगणे अस्ति तर्हि नसोरल्लोपः
अत्र रुधादिगणे अस्ति वा? अत्र पश्यतु बध्नाति इति उक्तवती, बध्नाति
स्नाविकर्मप्रत्यय
अस्ति
नवमे गणे, क्रयादिगणे अस्ति,
स्नाविकर्णप्रत्ययः अस्ति वा? तर्हि नकारः कथं भवति?
लोपः भवति तत्र, बन्ध अस्ति खलु, धातुः बन्ध अस्ति तत्र, किन्तु लट्टीरूपं बध्नाति इति रूपं भवति तत्र धातुः तु. भगिनी वदतु.
अनिदितां नुम् धातोः
अनिदितां हल उपधायाक्निति इति सूत्रं कार्यं करोति. अनिदितां हल उपधायाक्निति इति सूत्रेण नकारलोपः भवति. बन्ध् इति धातोः रूपम् अस्ति किन्तु तत्र नकारलोपः कित् नित् प्रत्यये परे भवति. किन्तु अत्र बध्नाति इत्यत्र कित् नित् प्रत्ययः कः इत्युक्ते श्नाप्रत्ययः अपित् प्रत्ययः, अतः सार्वधातुकम् अपित् इति सूत्रेण नित्वत् प्रवर्तते. अतः तस्य नित्वम् आधारीकृत्य अनिदितां हल उपधायाक्निति इति सूत्रेण नकारलोपः भूत्वा बद्ध इति भवति. बद्धयोगः नकारलोपः भवति चेत् बन्ध इत्यस्य रूपं बद्ध भवति, पश्चात् श्नाविकरणप्रत्ययस्य भागः अत्र आयाति. वदतु.
बद्धयोगः स्ना ना एव अवशिष्यते, बद्धना योगः बध्नाति.
उत्तमं. तादृशं कार्यं बन्धनम् इत्यत्र न भवति. किमर्थम्?
लिट् प्रत्ययः
कित् नित् नास्ति,
कित् नास्ति चेत् नकारलोपः न भवति.
नकारलोपः न भवति बन्धनम् इत्यत्र. अनिदितां हलोपधायाक्निति सूत्रस्य कार्यं न भवति, किन्तु बध्नाति इत्यत्र तस्य कार्यमस्ति, नकारलोपः भवति. एवमेव बन्धधातोः रूपमेव बद्धः, बद्धवान्, अपि च बद्ध्वा. तत्र किम् अस्ति वदतु भगिनि.
बन्धयोः कित् अस्ति चेत् अनिदितां हलोपदा किति नेति सूत्रेण नकारलोपः भवति, बद्ध भवति, बद्धयोगः त्वा बद्ध्वा भवति.
सन्धिकार्याणि, हल् सन्धिकार्याणि भवन्ति तत्र. अत्र बन्धनम् इत्यत्र अनिदितां हल उपधायाक्निति सूत्रस्य कार्यं नास्ति, किन्तु अत्र धातुः तु बन्ध अस्ति इति विषयः. शत्रुन्त्रूपम् अत्र दत्तमस्ति. शाणजन्तुरूपं किमस्ति पुंलिङ्गे?
कुर्वाणः.
कुर्वाणः धातुः उभयपदी अस्ति इति कारणतः शाणजन्तुरूपमपि सिद्ध्यति खलु. उत्तमम्. अत्र निस्सङ्गः इत्युक्ते सङ्गरहितः इति अर्थः अस्ति. प्राप्नोति तस्मिन् प्रसङ्गे किञ्चित् वदतु.
प्रा उपसर्ग पूर्वकः आप् धातुतः स्नो
स्वादिगणः.
स्वादिगणः
स्वादिभ्यः स्नुः
प्राप्नोति भवति. प्रा आप् स्नु
तत्र ओकारः अत्र ओकारः कुतः आगतः, किमर्थमागतः ओ इति?
ओ उ भवति, प्राप्नु भवति. थिनन्तपदं सार्वधातुक अर्धधातुकयोः सूत्रेण एकगुण भवति, प्राप्नोति.
तिप्रत्ययं निमित्तीकृत्य गुणकार्यम्.
आम्.
इत्युक्ते विकरणप्रत्ययं निमित्तीकृत्य नास्ति, तिप्रत्ययं निमित्तीकृत्य
गुणकार्यं
भवति इति विषयः. अत्र प्राप्नोति स्वादिगणीयः. निःसङ्गः इति लिखितमस्ति, तत्र सन्धिकार्यं कर्तुं शक्यते वा? निःसङ्गः इति लेखितुं शक्यते वा? शुभदा भगिनी भवती किं चिन्तयति?
भवति निस्सङ्गः निसङ्गः निस् त्रीणि रूपाणि भवति.
निस्सङ्गः इत्यपि भवितुम् अर्हति. वदतु.
आं भगिनी भवितुम् अर्हति. सत्यं.
क्षम्यतां.
श्रूयते वा?
श्रूयते.
भवितुं तु अर्हति निः सङ्गः. तत्र वाशरी इत्यनेन विसर्गः एव तिष्ठति. विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने सकारः आगच्छति चेत् नि नि स स इति भवति. निस्सङ्गः तत्र सकारसकारयोः संयोगः भवति इति. अतः निःसङ्गः निस्सङ्गः इति रूपद्वयं भवति इति मन्ये.
उत्तमम्. अत्र निस्सङ्गः इत्यत्र निर्गतः सङ्गः यस्मात् सः अथवा यस्य सः एवं वक्तुं शक्यते खलु. निर्गतः सङ्गः यस्मात् सः इति निस्सङ्गः इति भवति. कार्यम् इति पदम् अत्र कर्मपदमस्ति. कार्यं कुर्वन्नपि इति कुर्वन्नपि इत्यत्र ण्यमुडागमसन्धिः अस्ति. अग्रिमं वाक्यं भवती एव पठतु शुभदा भगिनी. अत्यन्तं पापी.
अत्यन्तं पापी अपि ज्ञानेन मोक्षं प्राप्नोति. तत्र अत्यन्तं पापी इति विशेषणविशेष्यभावः
अस्ति वा? विशेषणविशेष्यभावः अस्ति वा? तत्र अहं चिन्तयामि अव्ययीभावसमासयुक्तं पदम् अत्यन्तम् इति. अत्र पापी अस्ति. तत्र प्रातिपदिकं किम्?
गुणिन्वत् भवति वा? गुणी पापिन् इति.
उत्तमम्. अत्र पापम् अस्य अस्मिन् वा अस्ति पापी. तत्र इनि प्रत्ययः अस्ति. गुणी शब्दवत् अस्ति. भवती वदतु.
पापी इति प्रथमाविभक्ति एकवचनं. तस्य कर्तृपदं भवति. अत्यन्तम् यदा भवती उक्तवती तत्तु अव्ययीभावसमासः अस्ति इति अस्ति. अत्यन्तं पापी अपि ज्ञानेन मोक्षं प्राप्नोति. ज्ञानेन इति पुनः तृतीयाविभक्ति एकवचनं. ज्ञानम् इति नपुंसकलिङ्गे शब्दः. तस्य तृतीया एकवचनं. मोक्षम् इति कर्मपदम्. अत्र मोक्षम् इति द्वितीया विभक्ति एकवचनं. मुच् धातुः धातुतः अस्ति इति मन्ये. मोक्ष इति प्राप्नोति इति प्र उपसर्गपूर्वकः आप् धातुः. यदा पूर्वस्मिन् वाक्ये वयं चर्चितवन्तः तदेव प्रयोगः आप् योगः श्नु प्रत्ययः ति प्रत्ययः निमित्तीकृत्य नु इत्यस्य गुणः भूत्वा नो भवति. प्राप्नोति इति भवति. मोक्षम् इति मुच् धातुतः मोक्षः. घञ् प्रत्ययः वा? नाट् श्योर्.
चिन्तनीयम्. अत्र ज्ञानं वदतु.
ज्ञानं
ल्युडन्तं खलु?
ल्युडन्तम्. आम्. ज्ञा इति धातुतः ल्युट् प्रत्ययः. तस्य युवोरनाकौ इत्यनेन ल्युट् इत्यस्मात् यु इति अवशिष्यते अनुबन्धलोपे. यु इत्यस्य युवोरनाकौ इत्यनेन अन इति आदेशः भवति. ज्ञानयोगः अन ज्ञायोगः अन क्षम्यताम् ज्ञायोगः अन. तत्र अकसवर्णे दीर्घः इत्यनेन ज्ञान अपि च ल्युडन्त अस्ति इति कृत्वा तत्र नपुंसकलिङ्गे तस्य सिद्धत्वमस्ति.
उत्तमम्. अत्र पापी इत्युक्ते पापयुक्तः इति एकं पदमस्ति. अपि च पापकृत् इति पदमस्ति. पापकृत् इत्यत्र किमस्ति? विग्रहवाक्यं किं भवति पापकृत्?
पापकृत्
शास्त्रकृत् कर्मकृत् एवम् एवं भवति खलु. अत्र शास्त्रकृत् इति कथनेन विग्रहवाक्यं किम् अस्ति? शास्त्रं करोति इति शास्त्रकृत्, कर्म करोति इति कर्मकृत्. तत्र क्रिप् इति प्रत्ययः अस्ति, क्विबन्तं रूपम् अस्ति. पापकृत् इत्यत्र पापं करोति इति पापकृत्, क्विप् क्विबन्तं क्विप् प्रत्ययान्तरूपम् अस्ति. पापं करोति इति पापकृत्, किन्तु पापहृत् अस्ति चेत् विग्रहवाक्यम् पापहृत्
पापं हरति.
उत्तमं, पापं हरति. पापभृत् अस्ति चेत्
भृत् इत्यस्य अर्थः न जानामि भगिनि.
पापं पाप पापभृत् भृत् पापं भरति
एवं
पापं धरति. धरति वक्तुमिच्छामश्चेत् पापधृत् एवं रूपाणि साधयितुं शक्नुमः. अन्ततो गत्वा पापहृत् इति कथनेन पापं हरति इति अर्थः अस्ति. तस्मिन्नेव अर्थे पापघ्नः इति रूपमपि अस्ति. पापघ्नः इत्युक्ते तत्र भवती वक्तुमिच्छति वा पापघ्नः?
पापघ्नः
शत्रुघ्नः इव
कृतघ्नः
इव
अत्र धातोः घ्नन्ति इति रूपं भवति. तेन पापघ्नः यः पापं हन्ति इति अर्थे पापघ्नः.
उत्तमम् उत्तमम्. अत्र यः पापं हन्ति इति पापघ्नः, ईदृशानि पदानि बहु उत्तमानि पदानि. पापकृत् इव शत्रुजित् इति पदमपि अस्ति. शत्रून् जयति इति शत्रुजित् इति रूपम् अस्ति. तत्र क्विप् इति प्रत्ययः अस्ति. अपि च अत्र वाक्यं पुनः पश्यन्तु, ज्ञानेन मोक्षं प्राप्नोति पापी अपि इति लिखितमस्ति. अत्र ज्ञानेन इति तृतीयान्तं पदमस्ति. कर्तृकरणयोः तृतीया इति सूत्रेण, अनभिहिते कर्तृकरणयोः तृतीया इति सूत्रेण अत्र तृतीया विभक्तिः भवति. अत्र करणमस्ति, ज्ञानं करणमस्ति खलु. ज्ञानेन मोक्षं प्राप्नोति खलु.
आं भगिनि,
बहु उत्तमं वाक्यं खलु.
आम्
अत्र परशुना छिनत्ति इति कथनेन, तत्र परशुना छिनत्ति इत्यत्र परशुः इति उपकरणमस्ति, करणमस्ति. एवमेव अत्रापि ज्ञानेन पापी अपि मोक्षं प्राप्नोति खलु. बहु सम्यक्. अग्रे वदतु, अग्रिमं वाक्यं.
योगयुक्तः जितेन्द्रियः कार्यं कुर्वन्नपि न नश्यति. योगयुक्तः जितेन्द्रियः कार्यं कुर्वन्नपि न नश्यति. योगयुक्तः अत्र अपि योगी इति वक्तुं शक्यते वा? यथा
योगी इत्यत्र, योगी इत्यत्र प्रातिपदिकं किम्?
योगिन् इति.
तत्र इनि प्रत्ययः अस्ति. योगः अस्य अस्मिन् वा अस्ति इत्यत्र इनि प्रत्ययः योग इति अदन्तप्रातिपदिकम्. अतः इनि प्रत्ययस्य योजनेन अत्र योगिन् प्रातिपदिकम्. योगः अस्य अस्ति इति योगी. अत्र एकं पदं वदामि, योगीश्वरः इति एकं पदमस्ति, योगेश्वरः इति अन्यत् पदमस्ति. इच्छति चेत् लिखतु, योगेश्वरः भिन्नं, योगीश्वरः इति भिन्नं. तत्र भेदः कः?
योगेश्वरः योगीश्वरः.
रमेश महोदय, भवान् अपि चिन्तयतु.
योगानाम् ईश्वरः योगेश्वरः, योगिनः ईश्वरः योगीश्वरः वा?
अत्र योगेश्वरः इत्यत्र योग इति प्रातिपदिकं स्वीकृत्य ईश्वर इति उत्तरपदमस्ति. तत्र योग योगः ईश्वरः योगेश्वरः, तत्र गुणसन्धिकार्यमस्ति. योगानाम् ईश्वरः अथवा योगस्य ईश्वरः षष्टितत्पुरुषसमासः एव अस्ति. द्वयोः पदयोः षष्टितत्पुरुषः एव अस्ति किन्तु प्रातिपदिकं भिन्नम्. योगेश्वरः इत्यत्र योगप्रातिपदिकमस्ति किन्तु योगीश्वरः इत्यत्र योगिन् इति प्रातिपदिकमस्ति खलु. उत्तम उत्तम उत्तम. अत्र जितेन्द्रियः इत्यत्र किमस्ति?
जितेन्द्रियः अपि समस्तपदम्. जितम् इन्द्रियं येन सह
बहुवचने वदतु. किमर्थं चेत् इन्द्रियाणि सन्ति.
ओके. जितानि इन्द्रियाणि येन सह भवति वा?
उत्तम. जितानि इन्द्रियाणि येन सह. समासः कः?
बहुव्रीहिसमासः.
उत्तमम्. अत्र बहुव्रीहिसमासयुक्तं पदम् अन्यपदस्य विशेषणं भवति. योगिनः विशेषणम् एव जितेन्द्रियः. जितानि इन्द्रियाणि येन सह. जितानि इति कथनेन वशीकृतानि इन्द्रियाणि खलु.
आम् वशीकृतानि.
येन इन्द्रियाणि वशीकृतानि सः खलु. उत्तमं. जितानि इन्द्रियाणि इत्यत्र विशेषणविशेष्यभावः अस्ति किन्तु अत्र किं वक्तव्यं? येन सह इति विग्रहवाक्ये आगतः इत्यतः तृतीयार्धबहुव्रीहिसमासः इति वक्तव्यमस्ति. जितानि इन्द्रियाणि येन सह इत्यत्र तृतीयार्धबहुव्रीहिसमासः खलु. उत्तमम्. अत्र इतोपि किमस्ति? कार्यं कुर्वन्नपि. भवती वदतु अत्र इतोपि किं वदतु.
कार्यं कुर्वन्नपि न नश्यति. कार्यम् इति क्रूधातोः पुनः लिडन्तरूपं. लिडन्तरूपम् अतः नपुंसकलिङ्गे भवति.
कार्यम् इति कीदृशं पदम्?
कार्यमिति अत्र तु कर्मपदं. तस्य द्वितीया विभक्तिः एकवचनं भवति. तस्य प्रथमा विभक्तिः अपि कार्यमेव भवति. क्रू धातुतः निर्मितं पदं.
ञ्यत् प्रत्ययः रुहलोर् ञ्यत् इति सूत्रेण ञ्यत् प्रत्ययः विहितः भवति. अतः ञ्यत् प्रत्ययः णित् अस्ति. अतः अचोणिति इति सूत्रेण वृद्धिः भूत्वा क्रू कार् भवति. ञ्यत् इत्यत्र अनुबन्धलोपे सति या अवशिष्यते कार्य कार्यम् इति रूपं सिद्ध्यति. वृद्धिकार्यम् अस्ति तत्र खलु. अग्रे वदतु.
कुर्वन् अपि न नश्यति. कुर्वन् इति अपि क्रूधातु धातोः शत्रन्तरूपं परस्मैपदी रूपं स्वीकृत्य शत्रन्तरूपं भवति. कुर्वन् इति योगी योगयुक्तः योगी इत्यस्य अपि विशेषणं. सः कार्यं कुर्वन् अपि इति तस्य अर्थः. कुर्वन् इति कुर्वत् इति तस्य शत्रुप्रत्ययः. प्रथमाविभक्ति एकवचने कुर्वन् इति भवति. अपि न नश्यति. नश्यति इति नश् धातोः दिवादिगणीय लट्लकारे प्रथमाविभक्ति एकवचने नश्यति इति रूपम्. अत्र अपि कुर्वन् अपि अत्र अपि ङमुडागम सन्धि भवितुम् अर्हति. सः सन्धिः तु वैकल्पिकः अस्ति. अत्र तस्य सन्धिरूपम् अत्र न प्रदर्शितम्.
अत्र सन्धिः तु नित्यरूपेण एव भवति किन्तु वाक्ये तु विवक्षानुगुणं सन्धिकार्यं करणीयम् इति वक्तव्यं खलु.
अस्तु. हा सत्यं सत्यं. अस्तु.
अपि च नश्यति रूपं दृष्ट्वा धातुः कस्मिन् गणे अस्ति इति वक्तुं शक्यते?
तत्र यकारः दृश्यते अतः दिवादिगणीय इति वक्तुं शक्यते.
उत्तमं. नश् धातोः प्रसङ्गे स्मर्तव्यः अंशः कः इत्युक्ते नश् धातुः वेट् धातुः. इत्युक्ते एकस्मिन् पक्षे इडागमः भवति अन्यस्मिन् पक्षे इडागमः न भवति. तत् कार्यं कथं द्रष्टुं शक्यते? अर्धधातुकप्रक्रियायां तादृशं चिन्तनम् अवश्यं करणीयं. धातुः तु वेट् धातुः. रथादिभ्यश्च सूत्रेण धातुः वेट् भवति विशिष्टसूत्रेण. अतः एव नश् धातोः लृट् लृट्लकाररूपं भविष्यत्कालरूपम् अस्ति नशिष्यति नौङ्क्ष्यति इति रूपद्वयमस्ति इडागमः भवति चेत् एकं रूपम् इडागमः नास्ति चेत् अन्यद् रूपं सिध्यति तत्र नशिष्यति इति इडागमयुक्तं रूपम् अस्ति इति वार्ता अस्ति अपि च गीतायाम् अत्र शत्रन्तरूपम् अस्ति खलु मम स्मरणे एकः श्लोकः आगतः एकः श्लोकः गीतायाम् अस्ति पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् स्वशन् इति श्लोकः अस्ति तत्र तस्मिन् श्लोके सर्वाणि पदानि शत्रन्तानि खलु
शत्रन्तपदानि
पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् स्वशन् प्रलपन् विसृजन् गृह्णन् इति लिखितमस्ति तस्मिन् श्लोके श्लोके एव सर्वाणि पदानि शत्रन्तपदानि दृश्यन्ते इति वार्ता
भगिनि वाक्यार्थः किं
वाक्यस्य अर्थः वा
योगयुक्तः जितेन्द्रयः कार्यं कुर्वन्नपि न नश्यति किं न नश्यति
योगी जितेन्द्रियः योगी जितेन्द्रियः योगी कर्म कुर्वन्नपि न नश्यति इत्युक्ते तस्य प्रभावः तस्मिन् नास्ति सः जितेन्द्रियः सः केवलं कार्यं करोति किन्तु तस्य न किं वक्तव्यं न लिप्यते इति वक्तव्यम् अत्र इतोपि किं वक्तव्यं कर्म कुर्वन्नपि सः नश्यति सः जितेन्द्रः इत्यतः हा कोऽपि वदतु इतोपि स्पष्टतया
किञ्चित् क्लिष्टः अस्ति अर्थः
अन्यवाक्येन एव
अपि च युजिर् इति धातोः रूपमेव योगः युजिर् धातोः रूपमेव योग्यम् इति रूपं भवति युज् धातुः हलन्तधातुः खलु अतः ञत् प्रत्यये परे योग्यम् इति रूपं भवति अपि च वयं व्याकरणवर्गे पठितवन्तः खलु अयोगवाहाः इति वयं दृष्टवन्तः तत्रापि तत्पदमपि विशिष्टं पदम् अस्ति युज् धातोः रूपमेव योग्य इति भवति तल् प्रत्ययस्य योजनेन योग्यता योग्यत्वम् इत्यादीनि पदानि तद्धितान्तपदानि साधयितुं शक्नुमः अग्रे सूर्यकुमारी भगिनी भवती पठतु
सर्वाणि कार्याणि अपि ईश्वरार्पणरूपेण कारणीयानि
करणीयानि
क्षम्यतां करणीयानि
कारणीयानि इत्यत्र किम् अस्ति
निजन्तरूपमस्ति
निजन्तानाम् अपि सर्वाणि कृदन्तानि साधयितुं शक्नुमः आदौ निजन्तधातुं साधयामः धातुं स्वीकृत्य कृत् प्रत्ययस्य योजनेन निजन्तयुक्तकृदन्तानि साधयितुं शक्नुमः अस्मिन् वाक्ये कर्तृपदम् अस्ति वा नास्ति अत्र कर्मपदानि इत्युक्ते कार्याणि इति कर्मपदमस्ति तस्य विशेषणानि एव सर्वाणि कार्याणि करणीयानि कथम्
ईश्वरार्पणरूपेण
सर्वैः इति अत्र कर्तृपदम् अध्याहर्तव्यं खलु सर्वैः अथवा जनैः इति अध्याहर्तव्यम् करणीयानि साधयतु करणीयं करणीयम् इति नपुंसकलिङ्गपदमस्ति तद्रूपं साधयतु
क्रूदार्थतः
रूपाणि वदतु करणीयम् इति सुबन्तपदम् इत्युक्ते प्रातिपदिकं करणीय स्वीकृत्य
करणीयानि
इति भाति. तत्र णत्वमपि भवति रेफस्य कारणेन.
आम्
उत्तमम्. सर्वाणि कार्याणि करणीयानि इति अस्ति. इदं वाक्यं कर्मणि प्रयोगे अस्ति. त्रीणि एकम् एकं सर्वैः सर्वाणि कार्याणि ईश्वरार्पणरूपेण करणीयानि खलु. अपि च अत्र ईश्वरार्पणम् इति पदमस्ति. अर्पणम् इति पदस्य प्रसङ्गे वक्तव्यम्. अत्र अर्पणम् इति कीदृशं पदम्?
ल्युडन्तम्.
ल्युडन्तम् अस्ति, किन्तु तत्र किञ्चित् चिन्तनम् अस्ति. अत्र रमेश् महोदय भवान् चिन्तयतु, अर्पणम् इत्यत्र किं चिन्तनमस्ति?
अर्पणम् अर्पणाजानामि. अर्पणम् 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 इत्युक्ते तस्य दानम् इति तादृशम्.
अत्र अत्र किञ्चित् वक्तुमिच्छामि. धातुः रु इति धातुः अस्ति. रु इति धातुः अस्ति इति कारणतः अत्र णिच् प्रत्यये परे पुक् आगमः भवति. इत्युक्ते अर्ति ह्री व्ली क्नूयि क्ष्मायातां पुङ्णौ इति सूत्रेण रु धातोः परं णिच् प्रत्ययः अस्ति चेत् णिच् प्रत्ययस्य रूपं णिच् प्रत्ययान्तरूपं णिच् प्रत्ययस्य योजनेन नूतनधातुः अर्पि इति नूतनधातुः भवति. अत्र वस्तुतः मूलधातुः रु अस्ति, किन्तु णिच् प्रत्यये परे अर्ति ह्रीव्लीक्नुयीक्ष्मायातां पुङ्नौ इति सूत्रेण पुक् आगमः भवति. अतः अर्पि इति रूपं सिध्यति. तत्र अर्पि इत्यस्य लटीरूपम् अर्पयति इति रूपम् अस्ति. ल्युडन्तरूपम् अर्पणम् इति भवति. इत्युक्ते अत्र पुक् आगमः भवति. धातुः तु रु. अर्पि इति णिजन्तधातुः, अर्पणम् इति णिजन्तयुक्तं ल्युडन्तम् इति भवति.
धन्यवादः भगिनि.
ईश्वराय अर्पणम् इति मम अवगमनं. चतुर्थी तत्पुरुषसमासः भवति. चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति सूत्रेण ईश्वराय अर्पणम् इति वक्तुं शक्यते. रूपेण इत्यत्र णत्वमस्ति खलु
भगिनि.
अत्र केन सूत्रेण?
अट्कुप्वाङ्नुम् एवायेपि सूत्रेण पकार बाधितवर्णना अस्ति. ऊकारः एकारः व्यवधाने अस्ति, अपि नत्वं भवति.
अत्र करणीयानि इत्यत्र करणीयानि इत्यस्मिन् पदे रेफः अस्ति, किन्तु अन्ते दन्त्यनकारः अस्ति. करणीयानि इति एव लिखितमस्ति. किमर्थं करणीयानि इति न लिखितम्?
नकारः बाधितवर्णः अस्ति.
कः नकारः?
मूर्धन्यनकारः.
उत्तमं. मूर्धन्यनकारः बाधकवर्णः अस्ति, बाधां करोति सः वर्णः. अतः करणीयानि इति एव लेखनीयमस्ति. अग्रे सरेम. अग्रिमं वाक्यं भवती पठतु.
शौर्यं तेजः धृतिः युद्धे अपलायनमपि क्षात्रस्वभावः भवति. शौर्यं तेजः धृतिः युद्धे अपलायनमपि क्षात्रस्वभावः भवति. शौर्यं नपुंसकलिङ्गं
अत्र शौर्यं शौर्यम् इति पदं दृष्ट्वा किं वक्तुं शक्यते शूरस्य भावः
तद्धितान्तपदम्
अत्र प्रातिपदिकं किम् अस्ति शूर
ओ शूर
शूर योगः श्यै प्रत्ययः
ओके शौर्यं
शौर्यं
तेजः अकारान्त
अत्र उष्ण उष्ण इति अस्ति चेत् प्रातिपदिकं तद्धितान्तपदं किं भवति श्यै प्रत्ययस्य औष्ण्यम्
औष्ण्यम्
औष्ण्यम् इति भवति अत्र शूर अस्ति इत्यतः शौर्यम् इति रूपं सिद्ध्यति श्यै प्रत्ययान्तरूपम् अस्ति तद्धितान्तपदम् अस्ति तेजः इत्यत्र प्रातिपदिकं किम्
तेज तेजस् सम्यतां तेजस्
रूपाणि वदतु
सकारान्त
रूपाणि
तेजः तेजसौ तेजसः
नपुंसकलिङ्गपदमस्ति
ओ तेजः तेजस्
मनः मनसि मनांसि एवमेव
तेजसि तेजांसः
तेजांसि
तेजांसि
तेजः तेजसि तेजांसि तेजः तेजसि तेजांसि इति भवति धृतिः इति पदमस्ति तत्र क्तिन् प्रत्ययान्तरूपमस्ति वदतु
ध्रुयोगः क्तिन् ककार नकारलोपः भवति ति एव अवशिष्यते धृति प्रातिपदिकं भवति
धृति इति प्रातिपदिकमस्ति उत्तमम् अत्र स्त्रियां क्तिन् इति सूत्रेण क्तिन् प्रत्ययः विहितः भवति क्तिन् प्रत्ययस्य प्रसङ्गे क्तिन् प्रत्ययः अनुबन्धलोपे सति तकारादिप्रत्ययः तकारादिप्रत्ययः अस्ति इति कारणतः सेट् भवितुम् अर्हति किन्तु तत्र चिन्तनं किम् अस्ति तकारादिप्रत्ययः इत्युक्ते क्तिन् प्रत्यये अनुबन्धलोपानन्तरं तकारः आदिमवर्णः तकारः वलादिवर्णः आर्धधातुकस्येड् वलादेः सूत्रेण तकारः वलादिः एव अतः सेट् प्रत्ययः भवितुम् अर्हति भवति स्म किन्तु न भवति तत्र चिन्तनं किम् अस्ति इत्युक्ते तत्र ति तु त्राता था सीसु सरकसेषु च इति विशिष्टसूत्रेण दशसु कृत् प्रत्ययेषु इडागमः न भवति इत्युक्ते कृत् प्रत्ययस्य आदिमवर्णः ति अस्ति चेदपि एतेषु इत्युक्ते तस्मिन् सूत्रे दश कृत् प्रत्ययाः उक्ताः तेषु दशसु कृत् प्रत्ययेषु इडागमः न भवति तेषु दशसु प्रत्ययेषु क्तिन् प्रत्ययः अन्यतमः अतः तकारादिप्रत्ययः वलादिप्रत्ययः अस्ति चेदपि भवति इत्युक्ते सः प्रत्ययः अनिट् एव सेट् नास्ति इडागमः न भवति अतः एव धृतिः अपि च अन्यत् चिन्तनं किम् अस्ति ध्रुधातुः अजन्तधातुः साधारणतया अजन्तधातवः अनिटः हलन्तधातवः सामान्यतया सेटः इति चिन्तनम् अत्र तेजः इति लिखितमस्ति तेजः फलम् इति पदं वदामि तेजः फलम् इत्यत्र रूपद्वयं सिद्ध्यति वक्तुमिच्छति वा
तेजफलं तेजफलं
तेजः फलम् इत्यत्र अत्र रमेश महोदय भवान् वदतु तेजः फलम्
तत्र कुप्पो कप्पौ च इति सूत्रेण
उपद्मानीयः
उपद्मानीयः भवितुमर्हति कुप् तेजः फलम् इति तद् विकल्पेन भवति तर्हि तेजः फलमपि वक्तुं शक्यते इति अहं चिन्तयामि
बहु सम्यक् धन्यवादाः महोदय तेजः फलं तेजः फलम् इति एकं रूपम् अस्ति, तेजः फलम् इत्युक्ते अर्धविसर्गोच्चारणं भवति तत्र, उपध्मानीयवर्णः इत्युक्ते तदर्थं विशिष्टचिह्नेन तत्र लेखितुं शक्यते, उपध्मानीयचिह्नेन निर्देशः क्रियते, कुप्वोः कः पौच इति सूत्रेण विसर्गस्य विकल्पेन उपध्मानीयादेशः भवति. तत्र तेजः इत्यत्र विसर्गस्य अनन्तरं पवर्गीयवर्णः अस्ति खलु, अतः विकल्पेन उपध्मानीयचिह्नं लिखित्वा अन्यद् रूपं लेखितुं शक्नुमः, तेजः फलं तेजः फलम् इति भाति. युद्धे अपलायनम् इति लिखितमस्ति, युद्धम् इति कीदृशं पदम्?
युद्धधातु,
युद्धधातुः अस्ति, युद्धं युध्यते, युध्यते इति अस्ति, दिवादिगणे अस्ति, आत्मनेपदी धातुः युध्यते, क्तान्तरूपं भवितुमर्हति खलु,
युद्धः
क्तान्तरूपं. किन्तु तत्र चिन्तनमस्ति, नपुंसके भावे क्तः इति एकं सूत्रमस्ति, भावार्थे क्ताप्रत्ययः विहितः भवति इति तेन सूत्रेण उच्यते, नपुंसके भावे क्तः इति सूत्रेण भावार्थे क्ताप्रत्ययः विहितः, अतः युद्धम् इति रूपमस्ति. एवमेव गीतम् इत्यत्रापि नपुंसकलिङ्गपदम् इति अस्ति. क्षात्रस्य स्वभावः कः अन्ततो गत्वा?
युद्धं करणीयम्.
अपि च अत्र लक्षणानि दत्तानि खलु,
अपलायनम्,
शौर्यं, तेजः, धृतिः, युद्धे अपलायनम् इति अस्ति. अत्र अपलायनम् इति कथनेन किम् अवगम्यते?
तत्पुरुषः पलायनं नास्ति, पलायनं न कुरु, न करोति,
न पलायनम् अपलायनम्. अत्र पलायनं तस्मिन् प्रसङ्गे ज्ञातव्यम्. अत्र रमेश महोदय वदतु.
पलायनं
तत्र उपसर्गः अस्ति, परा, परायोगः अयनम्, किन्तु पलायनं भवति, किमर्थम्?
रेफस्य लकारः भवति.
एकं सूत्रमस्ति
उपसर्गस्यायतौ,
उपसर्गस्यायतौ,
वदतु.
तत्र अनेन सूत्रेण अयगतौ इति धातुः अयते इति तस्य रूपं भवति. यदा उपसर्गः भवति तस्मात् पूर्वं तर्हि उपसर्गः भवति चेत् रेफस्य लत्वं भव, यः रेफः तस्य लत्वं भवति इति.
परा इति उपसर्गः अस्ति चेदेव एतादृशं कार्यम्.
आमां, प्र अथवा परा इति
अहं चिन्तयामि, परा एव इति. अस्तु, उपसर्गस्यायतौ इति सूत्रेण लत्वं भवति इत्युक्ते रस्य लः इति भवति, इत्युक्ते रकारस्य स्थाने लकारादेशः भवति. इदानीं लटीरूपं प्रष्टुमिच्छामि, परायोगः अयते किं भवति?
पदायते.
उत्तमं, परायोगः अयनम्,
पलायनम्,
पलायनम् इत्युक्ते अयते इत्युक्ते अयतेः परस्य, अयतेः परतः उपसर्गस्य यः रेफः अस्ति तस्य स्थाने लकारादेशः भवति, अतः पलायनम् इति रूपं सिद्ध्यति. पलायते इति रूपमस्ति, तत्र उपसर्गः तु परा, विशिष्टसूत्रेण लत्वं भवति, रेफस्य स्थाने लकारः आगतः खलु. उत्तमम्. स्वस्य भावः स्वभावः इति भवति, क्षत्रस्य भावः क्षात्रम्, क्षात्रम् इति अपि तद्धितान्तं पदमेव इति अण् प्रत्ययः इति चिन्तयामि. क्षत्रस्य भावः क्षात्रम्.
क्षत्रस्य नाम किं भगिनि?
क्षत्रियः इति अस्ति खलु क्षत्रियः
परन्तु क्षत्र इति शब्दः प्रथमवारं श्रुतवती क्षत्र इति क्षत्रियः तु जानामि परन्तु क्षत्र इति कः अर्थः क्षत्रः इति इत्यस्य
अहं चिन्तये रक्षणम् इति
अस्तु
अस्तु अपि च शौर्यं तेजः धृतिः युद्धे अपलायनं क्षत्रस्वभावः अग्रे सरेम सूर्यकुमारी भगिनी भवती पठतु अग्रे
यस्य अहङ्कारः नास्ति सः कृत्वा अपि न करोति यस्य अहङ्कारः नास्ति सः कृत्वा अपि न करोति सः कार्यं कृत्वा अपि न करोति इति अर्थः
अत्र वाक्यस्य प्रथमभागं स्वीकरोतु यस्य अहङ्कारः नास्ति सः वदतु व्याकरणदृष्ट्या वदतु यस्य अहङ्कारः नास्ति
यस्य षष्ठी एकवचनं
अत्र भिन्नरीत्या पृच्छामि यस्य अहङ्कारः अस्ति सः
अहङ्कारः
अहङ्कारी
अहङ्कारी
खलु यस्य अहङ्कारः अस्ति सः अहङ्कारी यस्य अहङ्कारः नास्ति सः
निरहङ्कारी
निरहङ्कारी अपि च भिन्नरीत्या वदामः यस्य यस्मिन् वा अहङ्कारः अस्ति मतु प्रत्ययस्य योजनेन किं भवति पूर्वम् अहङ्कारी इत्यत्र इनि प्रत्ययः अस्ति किन्तु अत्र मतुप् योजनेन किं रूपं सिद्ध्यति यस्य अहङ्कारः अस्ति यस्य यस्मिन् वा अहङ्कारः अस्ति सः
अहङ्कारवान्
अहङ्कारवान् इति भवति अहङ्कारवान् अहङ्कारी समानार्थकपदानि खलु अहङ्कारी इत्यत्र नकारान्तप्रातिपदिकमस्ति अग्रे वदतु अस्मिन् प्रसङ्गे
यस्य अहङ्कारः नास्ति सः कृत्वा अपि न करोति कृत्वा अव्ययं भवति
कृदन्तव्ययं
कृदन्तव्ययम् अपि न करोति कार्यं कृत्वा अपि न अकृत्यम्
तत्र वैशिष्ट्यमस्ति खलु वाक्ये यस्य अहङ्कारः नास्ति सः कृत्वा अपि न करोति अत्र कृत्वा इत्यत्र कृदन्तव्ययं कथं क्त्वा तो सुन् कसुनः इति सूत्रेण क्त्वान्तरूपाणि अव्ययपदानि भवन्ति उत्तमं भवती श्रुतवती वा अहमहमिका इति एकं पदमस्ति अहमहमिका इति एकं पदं संस्कृतपदम् शुभदा भगिनी भवती श्रुतवती वा अहमहमिका
आं भगिनि अहमहमिका
वदतु वदतु
किञ्चित् यदा कापि स्पर्धा अथवा किमपि अस्ति चेत् तत्र स्पर्धायां ये उपस्थिताः सन्ति तेषु अहमहमिका अस्ति अहमेव श्रेष्ठः इति तस्य तेषां भावः अस्ति इति तद्भावः इति अहमहमिका अहम् इका इका इति किमपि प्रत्ययः भवेत् तत्तु न जानामि परन्तु ईर्ष्या अस्ति तेषु अहमेव मम एव जयं भवति इति एका ईर्ष्या अस्ति चेत् अहमहमिका इति उच्यते
उत्तमं तादृश अर्थः अस्ति अहमहमिका इत्युक्ते परस्पर अहङ्कारः तत्र वीप्सायां द्विवारं लिखितमस्ति वीप्सार्धे इत्युक्ते पौनःपुन्येन तत्र द्विवारं लिखितमस्ति अहमहमिका इति आकारान्तपदमस्ति अहमहमिकया केचन जनाः कार्यं कुर्वन्ति अत्र अहमहमिका इति पदम् उपयुज्य कानिचन वाक्यानि वदामि अहमहमिकया पुण्यक्षेत्रेषु जनाः आगत्य ईश्वरं प्रणमन्ति, अथवा अन्यद्वाक्यम् अन्नक्षेपणेन यथा काकाः आगच्छन्ति तथा एव धनदानेन केचन जनाः अहमहमिकया आगच्छन्ति. अन्नक्षेपणेन यदा काकाः आगच्छन्ति तथा एव धनदानेन केचन जनाः अहमहमिकया आगच्छन्ति. अपि च राष्ट्रनायकस्य अभिनन्दनाय जनाः अहमहमिकया प्रवर्तन्ते इति वक्तुं शक्यते. अत्र उत्तमं पदम् अहमहमिका इति. अत्र वाक्यसार्थः कः? निरहङ्कारी कार्यं कृत्वा अपि तत्र परमेश्वरार्पणबुद्ध्या कार्यं करोति इति कारणतः ईश्वरार्पणबुद्ध्या कार्यं करोति इत्यतः न करोति इति एव मन्तव्यम्. सः कृत्वा अपि न करोति इति अर्थः सः एव. सः सर्वदा जितेन्द्रियः अपि च ईश्वरार्पणबुद्ध्या कार्यं करोति, निरहङ्कारी इति तत्र अर्थः अस्ति. अग्रिमं वाक्यं रमेश् महोदय करोतु.
शौचम् आर्जवं ब्रह्मचर्यम् अहिंसा अपि शारीरं तपः भवति. शौचं प्रथमविभक्ति एकवचनरूपम्.
अत्र शुचेः भावः
शौचम्.
शुचेः भावः शुचिः इति पदमस्ति. तत्र शुचि प्रातिपदिकं स्वीकृत्य शौचम् इति रूपं साधितम्. आर्जवं वदतु.
ऋजुभावः वा?
उत्तमं. ऋजोः भावः.
ऋजोः भावः आर्जवम्.
ऋजु इति उकारान्तप्रातिपदिकमस्ति खलु. ऋजोः भावः आर्जवम्. आर्जवम् इत्युक्ते सारल्यं, ऋजुप्रवर्तनं, सारल्यं सरलता इति अस्ति. ऋजोः भावः आर्जवम्. अत्र ब्रह्मचर्यम् इति लिखितम् अस्ति. भवान् वदतु तस्मिन् प्रसङ्गे.
ब्रह्मचर्यम्
ब्रह्मचारी इत्यत्र, ब्रह्मचारी इत्यत्र प्रातिपदिकं किम् अस्ति?
ब्रह्मचारिन् इति प्रातिपदिकम् अस्ति.
ब्रह्मणि चरति इति वक्तुं शक्यते वा?
ब्रह्मणि चरति ब्रह्मचर्यः इति भवति वा?
तत्र
इतोपि चरः भवति खलु. किमपि सूत्रमस्ति वा? ब्रह्मचर्यं ब्रह्मचरः.
ब्रह्मचारी ब्रह्मचारी इति भिन्नम्. अत्र ब्रह्मचर्यम् इति लिखितम् अस्ति. भवान् वदतु.
न ब्रह्मचर्यं ब्रह्मणः चर्यं चरति.
शुभदा भगिनी भवती वक्तुमिच्छति वा अत्र किम् अस्ति?
ब्रह्मणि चरति इति ब्रह्मचारी इति भवति, परन्तु ब्रह्मचरः यदि स्वीकुर्मः चेत् तस्य भावः ब्रह्मचर्यम् इति भवति वा? ब्रह्मचरः तस्य भावः, ब्रह्मचरस्य भावः ब्रह्मचर्यम् इति. यदा सुन्दरस्य भावः सौन्दर्यम्.
तत्र आदिवृद्धिः नास्ति खलु?
नास्ति.
अस्तु अग्रे सरेम. ब्रह्मचारी इति पुंलिङ्गपदमस्ति, किन्तु स्त्रीलिङ्गे किं भवति? ब्रह्मचारिणी इति भवति. शुचेः भावः शौचं, मुनेः भावः
मौनं.
उत्तमं. ऋषेः भावः
आर्षम्.
उत्तमम्. आर्षं. कवेः भावः
काव्यम्.
उत्तमं, बहु सम्यक्. शुचि शुचेः भावः शौचम् इति उक्तमस्ति. शौचं तस्मिन्नेव अर्थे शुचित्वं, शुचिता इति अपि वक्तुं शक्यते खलु. तत्र त्वाप्रत्ययः तल् प्रत्ययः तत्र शौचम् इत्यत्र अण् प्रत्ययः अस्ति भिन्नभिन्न तद्धितप्रत्ययाः सन्ति तत्र तद्धितप्रकरणं बृहदस्ति बहवः तद्धितप्रत्ययाः सन्ति शौचम् इत्यत्र अण् अस्ति अग्रे वदतु अहिंसा इत्यत्र किम् अस्ति
न हिंसा इति अहिंसा
अहिंसा इति कथनेन अहिंसा इति कथनेन वाक् मन कायैः परपीडनस्य अभावः वाक् मन कायैः परपीडनाभावः इति एव अहिंसा खलु अत्र शारीरम् इति पदं दत्तमस्ति तत्र वदतु
शरीरस्य तत् इति शारीरं वा अणुप्रत्ययः वा
अण्प्रत्ययः तद्धितान्तपदमस्ति शरीरस्य इदं शारीरं तपः किम् इति प्रश्नः शारीरं तपः नाम किं वदतु
शौचम् आर्जवं ब्रह्मचर्यम् अहिंसा च शारीरं तपः इति दत्तमस्ति
शारीरं तपः द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति खलु
आम्
तत्र तपः इति नपुंसकलिङ्गपदमस्ति अतः शारीरं तपः तपः इति नपुंसि अस्ति शारीरं तपः इति उच्यते शौचम् आर्जवम् अहिंसा ब्रह्मचर्यं च अस्तु अग्रिमं वाक्यं भवान् पठतु
यातयामं गतरसं पूति पूर्युषितं
पर्युषितम् इत्यत्र परियोगः उषितं वदतु
उषितम् इत्युक्ते
वस् धातोः रूपम् उषितं वस् धातोः लटीरूपं किमस्ति वसति एव अस्ति वस् धातोः तान्तरूपं किमस्ति उषितवान् उषितम् उषित्वा इत्यादीनि रूपाणि भवन्ति तत्र चिन्तनं किमस्ति वस् धातोः प्रसङ्गे सम्प्रसारणं वदतु
सम्प्रसारणं भवति केन सूत्रेण
वचिस्वपि यजादीनां
वचिस्वपि यजादीनां ङिति च तत्र वचि स्वपि यजादि अस्ति यजादौ अस्ति वस् धातु तर्हि यजादौ गणः अस्ति यजादौ इति अन्तर्गणः अस्ति वा
अत्र यजादीनाम् इत्यत्र वस् धातोः प्रसङ्गः अपि अस्ति तेन सम्प्रसारणं भूत्वा वकारस्य स्थाने उकारः आगतः किन्तु अत्र षत्वं किमर्थं भवति वस् इत्यत्र दन्त्यसकारः अस्ति किन्तु अत्र षत्वं दृश्यते उषित इत्यत्र
आदेशप्रत्ययोः वस् धातोः
न अत्र एकं सूत्रमस्ति स्यासि वसि घसीनां च इत्युक्ते स्यास् धातोः प्रसङ्गे वस् धातोः प्रसङ्गे घस् धातोः तेषां प्रसङ्गे सकारस्य षत्वं भवति स्यासि वसि घसीनां च इति सूत्रेण षत्वं भवति अतः वकारस्य स्थाने उकारः सम्प्रसारणं सकारस्य स्थाने षत्वं विशिष्टसूत्रेण भूत्वा उषित इति रूपं भवति इतोपि तत्र चिन्तनमस्ति वस्तुतः वस् धातुः अनिट् धातुः वस्तुतः किन्तु एकेन विशिष्टसूत्रेण वसति क्षुधोरिट् इति विशिष्टसूत्रेण वस् धातुः सेट् भवति अतः ईडागमः तदर्थमेव उषित इति रूपं सिद्ध्यति क्त्वा निष्ठाप्रत्ययोः परयोः एव ईडागमः तत्र विशिष्टसूत्रेण निष्ठाप्रत्ययोः परयोः इडागमः दृश्यते अतः उषित उषितम् उषितवान् उषित्वा इत्यादीनि रूपाणि साधयितुं शक्नुमः. पर्युषितम् इत्यत्र यण् सन्धि कार्यम् अस्ति. भवान् वदतु अस्मिन् वाक्ये इतोपि किम् अस्ति?
उच्छिष्टम् इति पदमस्ति, तद् तत्रापि सन्धि भवति, उत्शिष्टम् उच्छिष्टम् इति.
उत्तमम्. अत्र यातायामम् अत्र आहत्य अत्र विशेषणानि इमानि पदानि खलु. भोजनं तामसप्रियं, कीदृशं भोजनं तामसप्रियम्?
यातयामं गतरसं, गतं रसं यस्य सः
रसः रसः इति पुंलिङ्गपदं
रसः यं तत्.
तत्र किं वक्तव्यं? गतरसम्. अत्र पश्यन्तु, यातयामं गतरसं पूति पर्युषितम् उच्छिष्टम् अमेध्यम्, ईदृशं भोजनं तामसप्रियम् इति अर्थः अस्ति. अत्र यातयामं, यातयामं भोजनं, भोजनस्य विशेषणं यातयामम् इत्युक्ते यातः यामः यस्य तत्. यातः यामः यस्य तत् इति विग्रहवाक्यं वक्तव्यं भवति. बहुव्रीहिसमासः अस्ति, बहुव्रीहिसमासः अस्ति इत्यतः अन्यपदस्य विशेषणं भोजनम् इत्यस्य विशेषणं भवति. यातात्मक यातात्मकः कालः व्यतीतः इति अर्थः. यातात्मकः कालः यस्य व्यतीतः अस्ति तादृशं भोजनं न करणीयम्. यातः यामः यस्य तत्, यातयामं यातयामं भोजनं. वदतु.
गतः रसः यस्य तत्, तदपि भोजनस्य
यस्य तत् वक्तव्यं वा यस्मात् तत् वक्तव्यं वा?
यस्मात् तत्, यस्मात् तत् पञ्चमी अर्थबहुव्रीहिः एव उत्तमं भवति इति अहं चिन्तयामि.
गतः रसः यस्मात् तत् गतरसम्. तत्र तत् इति किमर्थम् उक्तवान्?
भोजनमिति नपुंसकलिङ्गपदमस्ति.
बहु सम्यक्. गतः रसः यस्मात् तत् इति वक्तव्यमस्ति. किमर्थं चेत् गतरसम् इति भोजनम् इत्यस्य विशेषणमस्ति. अतः यस्मात् तत् बहुव्रीहिसमासयुक्तं पदमस्ति. शेषो बहुव्रीहिः अनेकमन्यपदार्थे इति सूत्रद्वयेन बहुरिः समासः तत्र भवति. गतरसम् इति कथनेन गतसारम् इति अर्थः अस्ति. पूति इत्युक्ते पूति
पूति
दुर्गन्धभूयिष्टं, दुर्गन्धम् दुर्गन्धभूयिष्टं भोजनं न भोक्तव्यम् अथवा न करणीयम् इति खलु. अपि च पर्युषितम् इति लिखितं खलु. अत्र श्लोकान्तर्गतं पदम् इदं, किन्तु तत्र पर्युषितम् इति कथने पर्युषितं भोजनं न करणीयम्. अत्र अर्थः कः? पर्युषितं
पूर्वं स्थापितम् इति वा?
उत्तमम्. तत्र अहं पुस्तकं दृष्टवती, अतः वदन्ती अस्मि. पुस्तके किं लिखितम् इत्युक्ते, रात्यन्तरितं दिनान्तरे पक्वं भोजनं, दिनान्तरे पक्वं भोजनं न भोक्तव्यम्. रात्यन्तरितं भोजनं न करणीयं, दिनान्तरे पक्वं भोजनं. दिनान्तरम् इति लिखितमस्ति. तत्र कः समासः?
मयूरवंशकादि वा?
उत्तमम्. तत्र विग्रहवाक्यं किं वक्तव्यं? मयूरव्यंसकादिसमासः अस्ति, कर्मधारयसमासः. मयूरव्यंसकादयः इत्यत्र अन्यदेशः, देशान्तरम्, एवमेव दिनान्तरं. तत्र
अन्यदिनः इति
अन्यत् दिनम्,
अन्यत् दिनं
नपुंसकलिङ्गपदम्. अन्यत् दिनं, दिनान्तरे पक्वं भोजनं न करणीयं, पर्युषितम् इति कथनेन अत्र उचितः अर्थः एवम् अस्ति. उच्छिष्टम् इत्युक्ते भुक्तावशिष्टं, भुक्तम् अवशिष्टं, भुक्तावशिष्टं भोजनं न करणीयम्. अमेध्यम् इत्युक्ते अशुचियुक्तं भोजनं, अभक्षणीयं. भक्षधातुतः भक्षणीयं, भुज्धातुतः भोजनीयं, खलु? अनियर् प्रत्ययान्तरूपाणि अस्ति. भोजनमिति कीदृशं पदम्?
ल्युडन्तम्.
भोजनीयम् इति
अनियर् अस्ति.
खादनीयम्
अनियर् अस्ति.
भक्षणीयम्
अनियर्.
तामसप्रियम् इति लिखितम् अस्ति, तत्र समासः कः?
तामसः प्रियम्.
तामसः प्रियं, नो चेत् बहुवचने अपि वक्तुं.
तमसी प्रियं वा तामसप्रियं?
तामसानां प्रियं, तामसानां प्रियं,
तामसानां प्रियं,
तामसानां प्रियं. भोजनं कीदृशमस्ति?
यातयामं, गतरसं, भूति, पर्युषितम्, उच्छिष्टम्, अमेध्यं च अस्ति इति.
बहु सम्यक्, उत्तमः उत्तमं वाक्यं खलु. पालनीयम्, एतत् सर्वं पालनीयं. शुभदा भगिनी वदतु.
पालनीयं, देट् इस् इम्पोर्टेण्ट्.
देट् इस् इम्पोर्टेण्ट्, बहु सम्यक्.
खलु महोदय, फ्रिज् अस्ति.
अमेध्यं पुनः वदतु अर्धः.
अमेध्यम् इत्युक्ते अशुचिकरं भोजनम्, अशुचिः. एतत् सर्वं न खादनीयं. यातयामं, गतरसं, पूति, पर्युषितम्, उच्छिष्टम्, अमेध्यं च तामसप्रियं भोजनम्. इत्युक्ते एतादृशं भोजनं तामसगुणवर्धकम्, एतादृश आहारः तामसगुणवर्धकः इति वक्तव्यम्. तामसगुणवर्धकः चेत् किं भवति? सर्वदा निद्रा, आलस्यम् एव भवति. तामसलक्षणानि इत्युक्ते तामसगुणवर्धकम् आहारं भोजनेन तत्र तामसगुणाः वर्धन्ते इति मम अवगमनम्.
भगिनि, भवती उक्तवती यातः यामः यस्य तत्, अहं न, मया न अवगतं तत्र यातः यामः नाम किम्?
यामः इत्युक्ते कालः, कालस्य गणनां कुर्मः खलु. यामः इत्युक्ते यातः इति कथनेन व्यतीतः यामः, व्यतीतः यामः, यातात्मककालः व्यतीतः. यस्य भोजनस्य यातात्मककालः व्यतीतः तादृशं भोजनं यातयामं भोजनम्.
अस्तु,
व्यतीतः इत्यत्र किमस्ति? व्यतीतः, व्यतीतः इत्यत्र वियोगः अतीतः, वि उपसर्गपूर्वक अतीतः, क्तान्तरूपम्,
क्तान्तरूपं,
व्यतीतः इति भाति. सम्यक् एव खलु? उत्तमम्. अग्रिमं वाक्यं सूर्यकुमारी भगिनी पठतु.
हा भगिनि, मनुष्येषु सात्विकी, सजसी, राजसी, तामसी अपि प्रकृतिः भवति. मनुष्येषु प्रकृतिगुणः विवरणं करोति. सात्विकी, राजसी, तामसी अपि प्रकृतिः एव मनुष्येषु, मनुष्याणां षष्ठी सप्तमी बहुवचनमस्ति. मनुष्येषु सात्विकी, राजसी, तामसी अपि प्रकृतिः भवति.
मनुष्याणां प्रकृतिः त्रिधा वर्तते सात्विकी राजसी तामसी मनुष्याणाम् इत्यत्र शकारस्य प्रभावेण णत्वं भवति मनुष्याणां प्रकृतिः त्रिधा वर्तते तत्र गीतायां श्लोकः अस्ति त्रिविधा भवति श्रद्धा देहिनां सा सात्विकी राजसी चैव तामसी चैति तां शृणु इति श्लोकः अस्ति त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा सात्विकी राजसी चैव तामसी चैति तां शृणु इति श्लोकः अस्ति तस्मात् श्लोकात् उद्धृतं वाक्यम् इदं सत्त्वात् आगता सात्विकी रजसः आगता राजसी तमसः आगता तामसी एवं प्रकृतिः मनुष्याणां प्रकृतिः त्रिधा भवति तत्र तिश्रः विधाः यस्याः सा इति त्रिविधा त्रिविधा इति पदमस्ति खलु तिश्रः विधाः यस्याः सा त्रिविधा इति भवति स्वभावजम् इति कथनेन स्वभावात् जातम् इति भवति तत्र उपपदसमासः अस्ति श्लोके तु स्वभावजा इति लिखितमस्ति श्रद्धा स्वभावजा त्रिविधा अथवा श्रद्धा त्रिविधा इति अस्ति स्वभावात् जातम् इति स्वभावजम् इति भाति अन्तिमं वाक्यं करोतु
अज्ञानिनः एतत् मम अस्ति तत् अपि मम भविष्यति इति चिन्तयन्ति अज्ञानिनः एतत् मम अस्ति तत् अपि मम भविष्यति इति चिन्तयन्ति अज्ञानिजनाः एतत् मम अस्ति मम एव ज्ञानी अज्ञानी अपि अस्ति तदर्थं भगवनि
अज्ञानिनः किं चिन्तयन्ति कथं चिन्तयन्ति
मम भविष्यति इति चिन्तयन्ति
एतद् मम अस्ति तदपि मम भविष्यति इति चिन्तयन्ति अज्ञानिनः अत्र अज्ञानिनः इति कीदृशं पदम्
अज्ञानिन्
एकवचने वदतु
अज्ञानी
अज्ञानी न ज्ञानी अज्ञानी तत्र नैतत्पुरुषसमासः अस्ति ज्ञानी इत्यत्र कः प्रत्ययः अस्ति
इन् प्रत्यय भगिनि
इनि प्रत्ययः ज्ञानम् अस्य अस्ति इति ज्ञानी ज्ञानी इत्यत्र नकारान्तप्रातिपदिकम् अस्ति ज्ञानिन् इति नकारान्तप्रातिपदिकं प्रथमाविभक्तिरूपं ज्ञानी ज्ञानमस्य अस्ति इति ज्ञानी तत्र सूत्रमस्ति अत इनि ठनौ इति सूत्रेण अदन्तप्रातिपदिकेभ्यः इनि प्रत्ययः विहितः भवति अत्र ज्ञान इति अदन्तप्रातिपदिकम् ह्रस्वाकारान्तप्रातिपदिकमस्ति अतः अदन्तप्रातिपदिकेभ्यः एव ईनि प्रत्ययः विहितः भवति गुणाः अस्य सन्ति इति गुणी एवमेव अत्र ज्ञानमस्ति इत्यतः ज्ञानी न ज्ञानी अज्ञानी ह्रस्वाकारान्तशब्दानाम् एव अनेन सूत्रेण ईनि प्रत्ययः भवति ज्ञानी इति भिन्नं ज्ञानम् इति भिन्नं खलु
भगिनि
न ज्ञानम् अज्ञानम् उत्तमम् अत्र न ज्ञानी अज्ञानी इति भवति भविष्यति रूपं साधयतु
भूतातुतः भू धातुतः स्या प्रत्ययः भविष्यति भवति
अर्धधातुकप्रक्रिया आम् अत्र अर्धधातुकप्रक्रियायाम् इडागमचिन्तनं करणीयम् वदतु भूधातुः सेट्
भूधातु स्या प्रत्यय अर्धधातुक इडानुकूल भवत् इडागम प्रत्ययः भूयोगः योगः स्या योगः ति भू अर्धधातुकः अस्ति चेत् बहु भो भवति
भू इति धातुः सेट् धातुः स्या प्रत्ययः अपि वलादिप्रत्ययः अतः अर्धधातुकस्येड् वलादेः इति सूत्रेण इडनुकूलप्रत्ययः धातौ आनुकूल्यमस्ति स्या प्रत्यये अपि आनुकूल्यमस्ति अतः इडागमः भवति इडागमः प्रत्ययस्य आगमः भवति इति आगमः टित् अस्ति इति कारणतः अत्र भूयोगः इष्यति इति रूपम् इष्यति इति रूपम् अस्ति भू इति धातुः अजन्तधातुः अतः किं वदामः इष्यति इति अर्धधातुकप्रत्ययं निमित्तीकृत्य भू इति धातुरूपि अङ्गे गुणः भवति सार्वधातुक अर्धधातुकयोः सूत्रेण गुणः भवति तेन वदतु
भो भवति भो योगः इष्यति इष्यति यवायावः सूत्रेण
अवादेशः
अवादेशः अवयोगः इष्यति अविष्यति भविष्यति
तत्र इष्यति इत्यत्र दन्त्यसकारः अस्ति किन्तु आदेशप्रत्ययोः इति सूत्रेण भविष्यति इत्यत्र मूर्धन्यषकारयुक्तं रूपम् एवं साधनीयम् इति विषयः एकमेव वाक्यमस्ति भवती एव पठतु तद्वाक्यम्
वाक्यं नास्ति भगिनि
अवधेयम्
अवधेयम् अवधेयमपि इति अव्ययस्य प्रयोगः सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु अपि शक्यः अवधेयम् अव उपसर्ग
धाधातुतः
धाधातुतः
यत् प्रत्ययः
यत् भगिनि
इत्युक्ते तत्र ण्यत् भिन्नः यत् भिन्नः अचोयतः इति सूत्रमस्ति तेन सूत्रेण धातुः अजन्तधातुः अस्ति चेत् यत् प्रत्ययः विहितः भवति धा इति धातुः आकारान्तधातुः अजन्तधातुः अतः अचोयत् इति सूत्रेण यत् प्रत्ययः विहितः भवति अतः अवधेयं किन्तु तत्र एकम् अन्यत् विशिष्टसूत्रमस्ति तेन धेयम् इति रूपं सिध्यति अवधेयम् अत्र किं लिखितं विशिष्टा सूचना खलु एव एषा सूचनायां किं दत्तमस्ति
अवधेयम् अपि अपि अव्ययपदम् अपि इति अव्ययस्य प्रयोगः सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु अपि शक्यः विभक्ति सप्तभिः विभक्तिभिः अपि उपयुज्यं शक्यम्
अत्र वाक्यं किमस्ति प्रयोगः शक्यः
आम्
द्वयोर्मध्ये सम्बन्धः अस्ति अव्ययस्य अपि इति अव्ययस्य प्रयोगः शक्यः कथं सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु अपि शक्यः अत्रापि अपि लिखितमस्ति अत्र इत्युक्ते एतेषां वाक्यानां पुनरवलोकनं करणीयं पुनरवलोकनं कुर्मः चेत् अवगन्तुं शक्नुमः सप्तभिः विभक्तिभिः युक्तानि वाक्यानि अत्र दत्तानि अत्र प्रथमा विभक्ति केषुचित् वाक्येषु अस्ति द्वितीया विभक्ति युक्तानि वाक्यानि कानिचन सन्ति षष्टिविभक्त्या सह अपि शब्दस्य प्रयोगः कुत्र कृतः दृश्यते अत्र
मनुष्येषु सप्तमे विभक्ति
तत्र कथमस्ति इत्युक्ते पूर्वस्मिन् पुटे पश्यतु पूर्वैः मुमुक्षुभिः अपि इति लिखितं
पूर्वैः
मुमुक्षुभिः अपि इति लिखितमस्ति तत्र तृतीया विभक्त्या सह अपि शब्दस्य प्रयोगः कृतः दृश्यते पण्डिताः अपि इत्यत्र
प्रथमाविभक्तिः बहुवचनं
बहुवचनमस्ति कर्म अकर्म विकर्म अपि इत्यत्र प्रथमाविभक्ति प्रथमाविभक्ति किन्तु वाक्यं तु कर्मणि प्रयोगे अस्ति कर्म अकर्म विकर्म अपि ज्ञातव्यम् इत्यत्र तव्यत् प्रत्ययः कर्मार्थकप्रत्ययः अतः कर्मणि प्रयोगे तद्वाक्यम् अस्ति अत्यन्तं पापी अपि इत्यत्र
अत्यन्तं पापी प्रथम एव
प्रथमाविभक्तिः अग्रिमे वाक्ये जितेन्द्रियः कार्यं कुर्वन्नपि इत्यत्र
जितेन्द्रः कार्यं जितेन्द्रः प्रथमाविभक्तिः वा
अत्र अपि शब्दस्य प्रयोगः केन प्रकारेण कृतः
योगयुक्तः जितेन्द्रयः कार्यं कुर्वन्नपि कार्यम्
अत्र कुर्वन् इति प्रथमान्तं पदं खलु
आम्
अपि च अत्र अत्र इत्युक्ते स्वीयवाक्यानि रचनीयानि इति मम अवगमनमस्ति इत्युक्ते अपि शब्दस्य प्रयोगः सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु अपि शक्यः इति कथनेन स्वीयवाक्यानि विरचय्य चिन्तनीयम्
okay.
विरचय्य इत्यत्र किमस्ति णिजन्तयुक्तं रूपं खलु
आम् वि उपसर्ग
तत्र ल्यपि लघुपूर्वात् सूत्रेण ऐ आदेशः भवति विरचय्य इत्यत्र खलु खलु भगिनि
भगिनि
विरचय्य प्रकथय्य इत्यत्र ल्यपि लघुपूर्वात् सूत्रं कार्यं करोति अपि च अपि शब्दस्य प्रसङ्गे अहं किञ्चित् पठितवती अतः वदन्ती अस्मि अपि भवान् कुशली अपि भवती कुशली इति वाक्यस्य कथनेन तत्र अपि इति शब्दः वाक्यस्य आदौ आयाति चेत् प्रश्नवाचकवाक्यं भवितुमर्हति इत्युक्ते अपि भवती कुशलिनी अपि भवान् कुशली इति पृच्छामि चेत् तत्र अपि शब्दस्य प्रयोगः वाक्यस्य आदौ भवति तादृशरीत्या वाक्यनिर्माणं कुर्मः चेत् तत्र तद्वाक्यं प्रश्नवाचकवाक्यं भवति तादृशेषु वाक्येषु अपि शब्दस्य प्रयोगः आदौ एव क्रियते अपि भवान् कुशली अपि भवती कुशलिनी इति अपि सर्वे कुशलिनः इत्यादिषु वाक्येषु अपि शब्दस्य प्रयोगः आदौ एव क्रियते तादृशप्रयोगं कुर्मः चेत् प्रश्नवाचकवाक्यं भवति प्रश्नार्थे तद्वाक्यं लिख्यते इति मया पठितम् अस्तु अपि शब्दस्य प्रसङ्गे वयं मिलित्वा किञ्चित् अवगतवन्तः आगामिन्यां कक्षायाम् एव इति अव्ययस्य प्रसङ्गे अवगन्तुं प्रयत्नं करिष्यामः सर्वेषां धन्यवादाः
धन्यवादः नमस्कारः
धन्यवादः
नमस्कारः
धन्यवादः महोदय